इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य त्रिदिवसीय यात्रायां गतसायं जामनगरं सम्प्राप्तवान्। आगामी दिनद्वये श्रीमोदी अनेकेषु कार्यक्रमेषु भागं भजिष्यति। श्रीमोदिनः जामनगर विमानस्थानकात् सर्किट हाउस इति परिपथ गृहं प्रति गच्छन् बहुसंख्यायां जनाः मार्गे उपस्थिताः आसन्। प्रधानमन्त्रिणः स्वागतं च कृतवन्तः। अद्य प्रधानमन्त्री नरेन्द्रमोदी पशु उद्धार पुनर्वास केन्द्रस्य वान्तारानगरस्य भ्रमणं करिष्यति। श्वः प्रातः सासनगीर राष्ट्रियोद्यानस्य भ्रमणं करिष्यति। प्रधानमन्त्री राष्ट्रिय वन्यजीवमण्डलेन आयोजितस्य उपवेशनस्य अध्यक्षताम् अपि करिष्यति। तस्य सह पदेन अध्यक्षः अस्ति। श्रीमोदी सोमनाथमन्दिरे प्रार्थनां करिष्यति। तदनन्तरं मन्दिरस्य प्रबन्धनसमित्याः श्रीसोमनाथन्यासस्य सभायाः अध्यक्षतां करिष्यति। प्रधानमन्त्री मन्दिरन्यासस्य अपि अध्यक्षः अस्ति। राष्ट्रियराजधान्यां वायुप्रदूषणस्य स्तरं नियन्त्रयितुं दिल्लीसर्वकारेण निर्णयः स्वीकृतः यत् यानि वाहनानि 15 वर्षाधिकं पुरातनानि सन्ति तानि मार्च मासस्य 31 दिनांकात् इन्धनकेन्द्रात् इन्धनं न प्राप्स्यन्ति। दिल्ल्याः पर्यावरणमन्त्रिणा मजिन्दर सिंह सिरसा इत्यनेन उक्तं वायुप्रदूषणविषये अधिकारिभिः सह उपवेशनं च कृतम्। प्रदूषणविरोधी नैके उपायाः समुद्घोषिताः। सभायाः अनन्तरं वार्ताहरैः सह वार्तालापे श्रीसिरसा अवदत् यत् इन्धनकेन्द्रेषु प्रशासनम् उपकरणानि योजयिष्यति, येन तेषां वाहनानां ज्ञानं भविष्यति यानि 15 वर्षाधिकानि भविष्यन्ति। उपराष्ट्रपतिः जगदीप धनखड़ः अद्य केरलराज्यस्य एकदिवसीय यात्रायां भविष्यति। यात्रावधौ उपराष्ट्रपतिः तिरुवनन्तपुरे भारतीय विचार केन्द्रेण आयोजिते 4थे पी परमेश्वरन स्मृति व्याख्यानं प्रदास्यति। भारतस्य सकल वस्तूनि सेवाकरस्य जीएसटी इत्यस्य संग्रहः फरवरी मासे 9.1% संवर्ध्य गतवर्षस्य फरवरी मासस्य तुलनायां 1.84 लक्षकोटिरूप्यकाणि अभवत्। फरवरी मासे 1.7 लक्षकोटिरूप्यतोप्यधिकस्य करस्य संग्रहणस्य क्रमशः 12तमं मासम् अस्ति। ह्यः सायं चन्द्रमसः दृगोचरः नाभवत्, अतः रमजान इति पर्वणः पवित्रमासः अद्य सम्पूर्णराष्ट्रे समारप्स्यते। उपासकाः रात्रौ तारावीह इति विशेषरात्रि प्रार्थनाः करिष्यन्ति, या सम्पूर्णमासं यावत् प्रचलिष्यति। ईद उल फितर इति उपवासः मासस्य समाप्तौ मान्यते। तत्रैव खाती देशेषु अद्य पवित्र रमजान मासस्य द्वितीयः दिवसः अस्ति। केन्द्रीय स्वास्थ्य परिवार कल्याण मन्त्री जगत प्रकाश नड्डा उक्तवान् यत् जनानां कृते निम्नमूल्येन औषधयः प्रदानं सर्वकारस्य दायित्वमस्ति, तथा च सर्वकारेण स्वदायित्वस्य निर्वहनं कृतम्। श्रीनड्डावर्येण स्वास्थ्य परिवार कल्याण राज्यमन्त्रिणा अनुप्रिया पटेलेन सह ह्यः नवदिल्ल्यां भारतीय जनौषधि परियोजनायाः रथस्य अन्येषां 10 वाहनानां च हरितध्वजं प्रदर्शितम्। जनौषधि जनचेतना सप्ताह मार्च मासस्य 7 दिनांकपर्यन्तम् आयोजयिष्यते। आईसीसी चैंपियंस ट्रॉफी इति प्रतिस्पर्धायाम् अद्य दुबई अन्तर्राष्ट्रिय क्रिकेट क्रीडांगणे भारतं न्यूजीलैंड दलं सम्मुखीकरिष्यति। स्पर्धायाः आरम्भः 2:30 भविष्यति। इति वार्ताः।